इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी नागरिकान् स्वदेशीय भावनाम् अंगीकर्तुं स्थानीयोत्पादानां च स्थानीयोत्पादाञ्च समर्थयितुम् आहूतवान्। उत्तरप्रदेशे वाराणस्याम् आयोजिते एकस्मिन् कार्यक्रमे श्रीमोदी सबलं प्रतिपादितवान् यत् वैश्विकार्थिका निश्चितता स्थितौ स्वदेशीय वस्तूनां संवर्धनम् एव राष्ट्रस्य यथार्थ सेवा अस्ति।
जो चीज भारत के लोगों के कौशल्य से बनी है, भारत के लोगों के पसीने से बनी है, हमारे लिए वह स्वदेशी है। हमें वोकल फॉर लोकल मंत्र को अपनाना होगा। हम संकल्प लें कि हम मेक इन इंडिया प्रोडक्ट्स को ही बढ़ावा देंगे। हमारे घर में जो भी नया सामान आएगा वो स्वदेशी ही होगा।
यः प्रधानमन्त्री वाराणसीतः समस्तस्यापि देशस्य 70,00,000+9,00,000+ कृषकेभ्यः कृषक सम्मान निधेः विंशं धनपुटकं प्रख्यापितवान्। एवं प्रकारेण कृषकाणां बैंक लेखासु साक्षात् 5,50,000+ हस्तान्तरितानि। प्रधानमन्त्री 200,00,000+ रूप्यकाणां 25 विकास परियोजनाश्चापि शिलान्यास पुरस्सरम् उद्घाटितवान्। सभां सम्बोधयन् प्रधानमन्त्री काश्यां साकं निज सम्बन्धस्य विषये अपि उक्तवान्। सः उक्तवान् यत् ऑपरेशन सिन्दूर इत्याख्यस्य सैन्याभियानस्य सफलतायाः अनन्तरं सः प्रथमवारं काशीम् आगतोऽस्ति। बाबा विश्वनाथस्य कृपया भारतेन पहलगाम आक्रमणे पीडितेभ्यः जनेभ्यः न्यायः प्रदत्तः। विपक्षस्य आलोचनां कुर्वन् सः अवदत् यत् एतत् नवीनं भारतम् अस्ति। ऑपरेशन सिन्दूर सैन्याभियानस्य अवसरे समग्रेणापि विश्वेन आत्मनिर्भर भारतस्य सामर्थ्यम् अवलोकितम्। निर्वाचनायोगेन बीएलओ इत्येतेषां कुटीरस्तरीय पदाधिकारिणां पारिश्रमिकं द्विगुणीकृतम्। निर्वाचन सूचीनां निर्माणे पुनरीक्षणे च संलग्नानां बीएलओ इति कुटीरस्तरीय पर्यवेक्षकाणाम् अपि पारिश्रमिकं वर्धितम्। निर्वाचनायोगेन एकस्मिन् वक्तव्ये सूचितं यत् संशोधित संरचनानुसारं बीएलओ कर्मिणां वार्षिकं पारिश्रमिकं 6,000 रूप्यकाणि यावत् द्विगुणीकृतम् अस्ति। प्रिया श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वेऽपि यथाकालं श्रोतुं प्रभवन्ति। अद्य उपहिमालयीय पश्चिम बंगाल सिक्किम मेघालय अरुणाचल प्रदेशेषु मूसलाधार वृष्टिः भविष्यति इति भारतीयर्तु विज्ञान विभागस्य अनुमानः अस्ति। अद्य तमिलनाडु केरल बिहार प्रदेशेषु प्रचण्ड वृष्टिः भविष्यति इत्यपि सम्भाव्यते। अपि च झारखण्ड मध्यप्रदेश पूर्वोत्तर राजस्थान उत्तराखण्ड पूर्वोत्तरीय क्षेत्रेषु घनासार वृष्टेः सम्भावना अस्ति। भारतेन भारत संयुक्तराष्ट्रसंघस्य वैश्विक क्षमता निर्माण परिकल्पना इत्यस्य प्रकल्पस्य अन्तर्गतं चतुर्णां विकास परियोजनानां प्रथमसमूह प्रारब्धः, यस्योद्देश्यः वैश्विक दक्षिण देशानां सतत विकास लक्ष्याणां पूर्तये समर्थनं वर्तते। अस्मिन् सन्दर्भे ह्यः विदेश मन्त्रालयस्य सचिवेन तन्मय लालेन परियोजनाः आधिकारिकतया प्रारब्धाः सन्ति। अन्ते क्रीडावार्तासु, भारत इंग्लैण्डयोः मध्ये अनुवर्तमानायां पञ्चस्पर्धात्मिकायां एण्डरसन तेण्डुलकर चषक निकष क्रिकेट क्रीडा मालिकायां लंदने द ओवल इत्यत्र पञ्चमस्य अन्तिमस्य च द्वन्द्वस्य चतुर्थे दिने आतिथेयम् इंग्लैण्ड दलं भारतं विरुध्य स्वीय द्वितीय पाल्याः आरम्भं करिष्यति। इयं स्पर्धा अद्य दिने 3:30 आरप्स्यते। इति वार्ताः।